इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। भारत दक्षिणा कोरिया देशौ आर्थिक सम्बन्धान् महत्वपूर्णतया गभीरं कर्तुं महत्वाकांक्षी मार्गचित्रं कल्पितवन्तौ। अथ त्रिंशदुत्तर द्विसहस्रतम वर्षपर्यन्तं द्विपक्षीय व्यापारं 50 अर्बुद डॉलर मितं यावत् वर्धयितुं घोषणां कृतवन्तौ। द्वयोः देशयोः अनेक क्षेत्रेषु सहकार्यार्थं चत्वारि विज्ञप्ति पत्राणि अपि हस्ताक्षरितानि। उभयपक्षेण व्यापक आर्थिक सहयोग सन्धेः उन्नयनार्थं वार्तायाः पुनः आरम्भं कर्तुं संयुक्त घोषणायाः आदान प्रदानं कृतम्। ह्यः नवदिल्ल्यां प्रधानमन्त्री नरेन्द्र मोदी दक्षिण कोरिया देशस्य राष्ट्रपतिः ली जे म्यूंग इत्यनयोर्मध्ये प्रतिनिधि मण्डलस्तरस्य वार्तायां हस्ताक्षरं कृत्वा विचाराणाम् आदान प्रदानं कृतम्। वार्तायाः अनन्तरं संयुक्त पत्रकार विज्ञप्तौ प्रधानमन्त्री मोदी उक्तवान् यत् द्वयोः देशयोः द्विपक्षीय व्यापारः 27 अर्बुद डॉलर मितं यावत् अभवत्।
भारत और कोरिया का बायलेटरल ट्रेड 27 बिलियन डॉलर तक पहुंच चुका है। 2030 तक इसे 50 बिलियन डॉलर तक पहुंचाने के लिए हमने आज कई महत्वपूर्ण निर्णय लिए हैं। फाइनेंशियल फ्लोस को सुगम बनाने के लिए भारत कोरिया फाइनेंशियल फोरम की शुरुआत की है। बिजनेस सहयोग को बल देने के लिए इंडस्ट्रियल कोऑपरेशन कमेटी का गठन किया है। क्रिटिकल टेक्नोलॉजी और सप्लाई चेन में सहयोग बढ़ाने के लिए हम इकोनॉमिक सिक्योरिटी डायलॉग शुरू कर रहे हैं।
अस्मिन् अवसरे दक्षिणा कोरिया देशस्य राष्ट्रपतिः म्यूंगः अवदत् यत् भारतं वैश्विक दक्षिणे अग्रणी रूपेण उद्भूतमस्ति। सः अवदत् यत् अनिश्चिततायाः युगे परस्पर वृद्धिं नवीनताञ्च प्रवर्धयितुं व्यापक सहकार्यस्य कृते देशद्वयमपि आदर्शरूपेण भवितुं शक्नोति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य ओडिशा राज्यं गमिष्यति। अस्मिन् अवसरे राष्ट्रपतिः रौरकेला नगरे सार्वजनिक कार्यक्रमे गृहालयस्य विज्ञान केन्द्रस्य निर्मल मुण्डा परिवेश मार्गस्य च उद्घाटनं करिष्यति। राष्ट्रपतिः मुर्मुः रौरकेला नगरे आदिवासी संग्रहालयस्य एकीकृत कमाण्ड नियन्त्रण केन्द्रस्य च उद्घाटनं करिष्यति। रक्षामन्त्री राजनाथ सिंह अद्यारभ्य भारत जर्मनी देशयोः यात्रायां भविष्यति। भारत जर्मनी देशयोः सामरिक सहयोगम् अधिकं सुदृढं कर्तुं त्रिदिवसीय यात्रायां भविष्यति। रक्षामन्त्रालयेन उक्तं यत् एषा यात्रा प्रचलति रक्षासहयोग परिकल्पनानां समीक्षां कर्तुम् उभय देशानां रक्षा उद्योगानां मध्ये सहकार्यस्य नूतनानां मार्गाणाम् अन्वेषणस्य च अवसरं प्रदास्यति। संस्कृतभाषायाः पुनरुत्थानार्थम् एवं वैश्विक प्रसारार्थं समर्पितस्य संस्कृतभारत्याः नवनिर्मित केन्द्रीय कार्यालयस्य प्रणव इत्यस्य भव्यभवनस्य लोकार्पणम् अक्षयतृतीयायाः पावनावसरे ह्यः प्रातः सम्पन्नं जातम्। राष्ट्रिय राजधान्यां दिल्ल्यां स्थितस्य अस्य अत्याधुनिक भवनस्य लोकार्पणं राष्ट्रिय स्वयंसेवक संघस्य सरसंघ चालकस्य डॉ मोहन भागवतस्य करकमलाभ्यां विधिवत् सम्पन्नम्। सभां सम्बोधयन् डॉ मोहन भागवतः उक्तवान् यत् संस्कृतं भारतस्य प्राणः एव वर्तते। सः प्रोक्तवान् यत् अधुना दिल्ली संस्कृतस्य पुनर्जागरणस्य नूतनं केन्द्रं जातम्। संस्कृतं भारतस्य आत्मा इति वर्णयन् सः अवदत् यत् एषा केवलं भाषा नास्ति अपितु भारतस्य संस्कृतिः परम्परा जीवनदृष्टिकोणः इत्येतेषां च आधारः अस्ति। अस्मिन् अवसरे प्रधानमन्त्री श्रीनरेन्द्रमोदी स्व अभिनन्दन सन्देशे उक्तवान् यत् अक्षयतृतीयायाः पावनावसरे प्रणवकार्यालयस्य लोकार्पणम् अत्यन्त हर्षदायकम् अस्ति। सः अवदत् यत् संस्कृतम् अतीतं नास्ति अपितु अस्माकं भविष्यमस्ति। अस्मिन् अवसरे केन्द्रीयमन्त्री निर्मला सीतारामन् पूर्वकेन्द्रीयमन्त्री अनुराग ठाकुरः संस्कृतभारत्याः अखिल भारतीय अध्यक्षः प्रोफेसर रमेश कुमार पाण्डेयः संस्कृत भारतीय भाषा समितेः अध्यक्षः चमुकृष्णशास्त्री संस्कृत संवर्धन प्रतिष्ठानस्य निदेशकः प्रोफेसर चांद किरण सलूजा अन्ये च गणमान्याः नेतारश्च उपस्थिताः आसन्। इति वार्ताः।